नमस्सर्वेभ्यः। अधुना कोविद पाठ्यक्रमे विद्यमानानां सूक्तीनां विषये संक्षेपेण जानीमः। गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। कोविद पाठ्यपुस्तके प्रतिपाठम् आदौ एका सूक्तिः दीयते, तस्य अर्थः अपि आङ्ग्लभाषया दत्तः अस्ति। परीक्षायां सूक्तेः अर्थं वर्णयन्तु इति प्रश्नः सामान्यतः भवति, अतः एतासां सूक्तीनाम् अर्थं संक्षेपेण ज्ञातुं प्रयत्नं कुर्मः। प्रथमा सूक्तिः अस्ति आनो भद्राः क्रतवो यन्तु विश्वतः इति। ऋग्वेदस्य बहु प्रसिद्धम् इदं वाक्यं, भद्राः क्रतवः विश्वतः नः आयन्तु इति अन्वयः। कः अर्थः? उत्तमविचाराः, भद्राः क्रतवः, भद्राः मङ्गलकराः क्रतवः विचाराः प्रपञ्चस्य सर्वभागेभ्यः अस्माकं समीपे आगच्छन्तु इति अर्थः। सो भद्राः ऑस्पिशियस् गुड् इत्यर्थः, क्रतवः विचाराः थॉट्स्, सो गुड् थॉट्स् और् बेनिफिशियल् थॉट्स् विश्वतः फ्रम् आल् सैड्स् आफ् द वर्ल्ड्, नः अस्मान् नः सो टुवर्ड्स् अस्, आयन्तु मे दे कम् और् अप्रोच् सो मे गुड् थॉट्स् अप्रोचस् फ्रम् आल् सैड्स् आफ् द वर्ल्ड् इति अस्य अर्थः। द्वितीय सूक्तिः अस्ति महीयांसः प्रकृत्या मितभाषिणः। शिशुपालवधे श्लोकस्य कश्चित् भागः एषः, महीयांसः प्रकृत्या मितभाषिणः, श्रेष्ठजनाः स्वभावतः अल्पमेव वदन्ति, बहु न भाषन्ते, अधिकं न वदन्ति इत्यर्थः। सो महीयांसः, महीयान् महीयांसौ महीयांसः, महान्तः श्रेष्ठजनाः सो ग्रेट् पीपल्, प्रकृत्या स्वभावेन बै देर् नेचर् मितभाषिणः, मितम् इस् लिमिटेड् सो दे स्पीक् लिमिटेड् वाट् एवर् इस् रिक्वैर्ड् दे स्पीक् बट् नाट् टु मच्, महीयांसः प्रकृत्या मितभाषिणः। तृतीया सूक्तिः अस्ति महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः इति। सुभाषितस्य एकमर्थमस्ति इदं, महाजनस्य सम्पर्कः कस्य उन्नतिकारकः न भवति इति प्रश्नः। अर्थात् उत्तमजनानां सम्बन्धेन सर्वेषामपि समृद्धिः निश्चयेन भवति। कस्य न भवति इति प्रश्नस्य आशयः निश्चयेन भवति, काकुः इति उच्यते। सो द क्वेश्चन् इस् नाट् टु आस्क् हू विल् नाट् बि बेनिफिटेड्, इट् इस् टु असर्ट् दट् एव्रिबडि विल् डेफिनेट्लि बि बेनिफिटेड्। महाजनस्य, महान् जनः तस्य, सो उत्तमपुरुषस्य सम्पर्कः सम्बन्धः, so association with a great man or with great people, kasya unnatikarakah, unnatihi abhivruddhihi progress, so samriddhi sadhakah na bhavati, so whose benefit will it not be? It will be to everybody's benefit definitely. Satsangatih kathaya kinna karoti pumsam ityapi anyat subhashitam asti. अस्य सुभाषितस्य द्वितीयः भागः अस्ति पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् इति। सो दिस् इस् एन् अर्थान्तरन्यास, वी हेव् लर्न्ड् द अर्थान्तरन्यास अलङ्कार इन् कोविद। सो देर् इस् अ जनरल् स्टेट्मेण्ट् विच् सेस् दट् असोसियेशन् वित् ग्रेट् पीपल् इस् बेनिफिशियल्, सो हि गिव्स् एन् एक्साम्पल्, पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम्, तोयं जलं पद्मपत्रस्थितं, So a drop of water on a lotus leaf, mukta phalashriyam dhatte, it sparkles like a pearl. That is because of the association with the Padma Patra, even an ordinary drop of water, it gets the sheen of a pearl. So it is getting benefited. Iti udaharanam diyate. Chaturthi suktihi asti yanti nyaya pravrittasya tiryanjopi sahayatam. Ayamapi subhashitasya ardhabhagaha. Nyaya pravrittasya tiryanjaha api sahayatam yanti. Dharma marge pravrittasya pashupakshinaha api. So tiryanjaha. So lesser beings, that is not wise beings like non-humans. So pashupakshinaha api sahayam kurvanti iti arthaha. So nyaya pravrittasya sanmarge prasthitasya, he who has set out on the right path, tiryanjaha, so animals, birds and such beings also, sahayatam yanti, so they become helpers, they become helpful in his quest to stay on the right path. And the other half of the Subhashita states the converse, apanthanantu gacchantam sodaropi vimunchati. On the other hand, if we are going on the wrong path, sodaraha api, even a brother, vimunchati, will desert. So this is etat Subhashitam Ramayanameva manasi nidhaya pravrittamasti. Ramaha dharma marge pravrittaha vanaraha evam laghuchikrodaha te api tasya sahayam krutavantaha. Yahatu adharme pravrittaha ravanaha tasya anujaha vibhishanaha api tam tyaktavan. Ataha dharma marge vayam bhavamaha chet sahayam labhyate eva ityarthaha. Panchami suktihi Mahabharatat svikrata alakshmir avishatyenam shayanam alasam naram. Enam shayanam alasam naram alakshmihi avishati. Alasyasya dushparinamaha kaha iti iyam suktihi bodhayati. Sarvada svapantam alasyavantam manushyam alakshmihi. Alakshmihi, opposite of Lakshmi. So Lakshmi stands for wealth and prosperity. So Alakshmi is the adhidevata for poverty. So daridryasya adhidevata alakshmihi pravishati. So shayanam nidram kurvanam, he who is always slumbering, alasam and is lazy, very slow, tadrisham naram manushyam alakshmihi avishati. So poverty will envelop him. Avishati sarvataha vyapnoti. So he who is careless and lazy will definitely lose all his prosperity. Ityarthaha. Shashti sukti hasti. Apatkale tu samprapte yan mitram mitrameva tat. Prasiddham idam. Apatkale samprapte yat mitram tadeva mitram. A friend in need is a friend indeed. Tasya samanarthakam idam vachanam. Yaha kashtakale sahayam karoti sahayeva suhrit mitram iti uchyate. So apatkale kashtakale samprapte sannihite yat mitram yaha suhrit bhavati tadeva mitram. Asya dvitiyardha subhashitasya vriddhikale tu samprapte durjano api suhrad bhavet. Asmakam aishwaryadikam yada asti tada durjanaha api samyageva vyavaharam kurvanti. Yada kashtam bhavati tada aptaha ye bhavanti te eva asmakam mitrani. Saptami suktihi asti. Yadyadacharati shreshtha tattadeve tarojanaha. Bhagavad Gita yaha bahu prasiddha shlokaha श्रेष्ठः यत् यत् आचरति तत् तत् एव इतरः जनः अपि आचरति इति अध्याहर्तव्यम्। उत्तमजनाः यथा व्यवहरन्ति तथैव इतरे जनाः तान् दृष्ट्वा अनुकुर्वन्ति। यत् यत् आचरति, सो वाट् एवर् इस् पर्फार्म्ड् और् विच् एवर् पात् इस् टेकन्, श्रेष्ठः उत्तमः बै द लीडर् बै हूवर् इस् इन् अ गुड् पोजिशन् इन् द सोसैटि, तत्तदेव द सेम् थिङ्ग् इतरः जनः, सो अदर् पीपल् आल्सो फालो। सो दोस् हू आर् इन् सच् पोजिशन्स् हेव् अ ग्रेट् रेस्पान्सिबिलिटि आफ् लीडिङ्ग् पीपल् आन् टु द करेक्ट् पात्। सो श्लोकस्य अपरार्थः अस्ति, स यत् प्रमाणं कुरुते लोकस्तरनु वर्तते, वाट् एवर् इस् द बेञ्च् मार्क् हि सेट्स् इस् फालोड् बै द वर्ल्ड्। सो अतः ये ज्ञानिनः सन्ति ते तथा आचरणं कुर्युः, येन अन्ये जनाः अपि सत्पथं जानीयुः। अष्टमी सूक्तिः अस्ति, निसर्गस्सहिधीराणां यदापद्यधिकं दृढाः। कथासरित्सागरे इयं सूक्तिः अस्ति, सः हि धीराणां निसर्गः यत् आपदि अधिकं दृढाः भवन्ति। धीराः, सो दोस् हु आर् वेरि स्टेड्फास्ट् आर् ब्रेव्, के धीराः? सामान्यं सर्वं यदा सम्यगस्ति तदा वयमपि धीराः सर्वे अपि, सो आल् आफ् अस् आर् calm and composed when circumstances are favorable, but aapadi when there is a problem tada adhikam dridhah, we collapse or normal people collapse, whereas really steadfast people, real dhiras, they become more firm, more steady in presence of trouble. Sayeva dhiranam nisargah swabhavah, सो धीराः कष्टकाले अधिकं धैर्यं प्रदर्शयन्ति, एषः एव तेषां स्वभावः। निसर्गः, प्रकृतिः, स्वभावः सर्वं समानार्थकं। धीराणां, धैर्यशालिनां, यत् आपदि कष्टे अधिकं बहु दृढाः स्थिराः भवन्ति। नवमी सूक्तिः, पुनः भगवद्गीतायाः प्रसिद्धं वचनम्, उद्धरेदात्मनात्मानं नात्मानमवसादयेत्, आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः। सो आत्मना आत्मानम् उद्धरेत् न आत्मानम् अवसादयेत्। सो स्वस्य प्रयत्नेन स्वस्य अभिवृद्ध्यर्थं प्रयत्नः कर्तव्यः, आत्मनः यत् हितं तदेव आचरणीयम्, स्वस्य हानिकराणि कर्माणि न कुर्यात्। आत्मनः हानिं यादृशानि कृत्यानि कुर्वन्ति तादृशानि न आचरेत्। सो उद्धरेत्, उपरि नयेत्, शुड् इम्प्रूव्। आत्मना आत्मानम्, improve oneself by one's own effort, nobody else can do it, it is only a person who can change or improve himself. Na atmanam avasadayet, one should not destroy oneself, seems like a very obvious thing, but knowing this all of us tend to do the reverse. Tatra Mahabharate Duryodhanah spashtam vadati, janami dharmam na chame pravrittih, janamya dharmam na chame nivrittih. It is not that I don't know what is dharma, what is adharma. I know what is dharma, but I cannot act on it. I know what is adharma, I cannot leave it. So, asmakam api bahuvaram jnayate, jnatva api vayam, yat na hitam tadrisham kurmaha, na kuryat iti Krishnaha upadishati. Atmaivahi atmano bandhuhu. So, we can help ourselves or we can harm ourselves. It is for us to choose. दशमी सूक्तिः अपि भगवद्गीतायाः एव, योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये। योगिनः सङ्गं त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति। Yoginaha anuraktim vina. Sangam is attachment to something. So attachment to the deed, to the fruits of the deed. So tad vina kevalam atmanaha parishuddhim sadhayitum. Only to purify oneself, to get rid of the baggage of karma, karyam kurvanti. Karmanye vadhikaraste ma phaleshu kadachana iti punah punaha Sri Krishna upadishati. So tadrisham karma phale sangaha yaha bhavati tatyaktva kevalam atmashuddhyartham ye karma kurvanti te eva yoginaha. Tadrisham yogam praptum asmabhirapi prayatna karaniyaha. So yoginaha karma karyam kurvanti acharanti katham sangam tyaktva anuragaha attachment tadvihaya atma shuddhaye swasya parishuddhyartham atmanaha shuddhyarthameva karyam kurvanti. So it does not mean you just stop doing anything. You have to continue doing the karma without attaching yourself to the karma phala. Tadayeva atma jnanam bhavati ityarthah. Antima suktihi asti nahi jnanena sadrisham pavitramiha vidyate iti Bhagavad Gitayaha jnanena sadrisham pavitram iha nahi vidyate. So jnanatulyam pavanam vastu anyat kimapi nasti. So there is nothing which is sadrisham tulyam equal to equal in equally pavitram, pavanam, sacred or purifying. So pavitra and pavana are both derived from the pudhatu, which means to cleanse, to purify. So nothing purifying like jnana. So real absolute knowledge. So that is the one which is really purifying. Tadrisham anyat kimapi pavitram vastu nasti. ధన్యవాదాలు.